अथ द्वादशोऽध्यायः अर्जुन उवाच एवं सततयुक्ताये भक्तास्त्वां पर्युपासते ये चाप्यक्षरमव्यक्तम् तेषां के योगवित्तमाः श्रीभगवानुवाच मय्या वेश्यमनो ये माम् नित्ययुक्ता उपासते श्रद्धया परयोपेताः ते मे युक्ततमामताः ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्र गमचिन्त्यं च कूटस्थमचलं ध्रुवम् सन्नियम्येन्द्रियग्रामम्
सर्वत्र समबुद्धयः
ते प्राप्नुवन्ति मामेव सर्वभूतहितेरताः
क्लेशोऽधिकतरस्तेषाम्
अव्यक्तासक्तचेतसाम्
अव्यक्ता हि गतिर्दुःखम्
देहवद्भिरवाप्यते ये तु सर्वाणि कर्माणि
मयि सन्न्यस्य मत्पराः
अनन्येनैव योगेन
मां ध्यायन्त उपासते
तेषामहं समुद्धर्ता
मृत्युसंसारसागरात्
भवामि न चिरात् पार्थ
मय्यावेशितचेतसाम्
मय्येव मन आधत्स्व
मयि बुद्धिं निवेशय
निवसिष्यसि मय्येव
अथ ऊर्ध्वं न संशयः
अथ चित्तं समाधातुम्
न शक्नोषि मयि स्थिरम्
अभ्यासयोगेन ततः
मामिच्छाप्तुं धनञ्जय
मामिच्छास्तुं धनंजय
अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव
मदर्थमपि कर्माणि
कुर्वन् सिद्धिमवाप्स्यसि अथैतदप्यशक्तोऽसि
कर्तुं मद्योगमाश्रितः
सर्वकर्मफलत्यागम्
ततः कुरुयतात्मवान्
श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशिष्यते
ध्यानात् कर्मफलत्यागः
त्यागाच्छान्तिरनन्तरम्
अद्वेष्टा सर्वभूतानां
मैत्रकरुण एव च निर्ममो निरहंकारः
समदुःखसुखक्षमी
संतुष्टः सततं योगी
यतात्मा दृढनिश्चयः
मय्यर्पितमनो बुद्धिः
यो मद्भक्तः स मे प्रियः
यस्मान्नो द्विजते लोकः
लोकान्नो द्विजते चयः
हर्षामर्षभयोद्वेगैः
मुक्तो यः स च मे प्रियः
अनपेक्षशुचिर्दक्षः
उदासीनो गतव्यतः
सर्वारम्भपरित्यागी
यो मद्भक्तः स मे प्रियः
यो न हृष्यति न द्वेष्टि
न शोचति न कांक्षति
शुभाशुभपरित्यागी
भक्तिमान्यः स मे प्रियः
समौ शत्रौ च मित्रे च
तथा मानापमानयोः
शीतोष्णसुखदुःखेषु
समसङ्गविवर्जितः
तुल्यनिन्दास्तुतिर्मौनी
तुल्य निंदा सुतिर मौनी
संतुष्टो येन केनचित्
संतुष्टो येन केनचित्
अनिकेतस्तिरमतिः
अनिकेतस्तिरमतिः
भक्तिमान् मे प्रियो नरः
भक्तिमान् मे प्रियो नरः
येतु धर्म्यामृतमिदम्
येतु धर्म्यामृतमिदम्
यथोक्तं पर्युपासते
यथोक्तं पर्युपासते
श्रद्धधानामत्परमाः
श्रद्धधानामत्परमाः
भक्तास्तेतीव मे प्रियाः
भक्तास्तेतीव मे प्रियाः
ॐ तत्सविति
ॐ तत्सविति
श्रीमद्भगवद्गीतासु
श्रीमद्भगवद्गीतासु
उपनिषत्सु
उपनिषत्सु
ब्रह्मविद्यायां
ब्रह्मविद्यायां
योगशास्त्रे
योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम
भक्तियोगो नाम
द्वादशोऽध्यायः
द्वादशोऽध्यायः।